इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। इदानीं वार्ताः। प्रधानमन्त्रिणा श्रीमता नरेन्द्रमोदिना निगदितं यत् आंकीय सार्वजनिक अवसंरचना सेतुत्वेन भवेदिति न तु एका बाधा इति। गतरात्रौ संयुक्त राष्ट्र महासभायां भविष्यस्य शिखर सम्मेलनं संबोधयता श्रीमोदिना प्रतिपादितं यत् वैश्विक कल्याणाय भारतं स्वीयां आंकीय सार्वजनिक संरचनां विनिमयीकर्तुं सज्जमस्ति। एतदतिरिच्य प्रधानमन्त्रिणा प्रोदीरितं यत् मानवतायाः साफल्यं सामूहिक शक्तौ निहितमस्ति न तु युद्धक्षेत्रे। श्रीमोदी वैश्विक शान्तिं विकासं च सुनिश्चितुं वैश्विक संस्थासु परिष्कारान् कर्तुम् आग्रहम् अपि अकरोत्। भयोत्पादनस्य उद्भूतानां संकटानां च विषयं प्रति व्याकुलतां प्रकटयन् प्रधानमन्त्री प्रावोचत् यत् भयोत्पादनं वैश्विक शान्त्यर्थं सुरक्षायै च गभीरा विभीषिका अस्ति इति। सः इदमपि अवदत् यत् आन्तर्जालिक सुरक्षायाः समुद्रीयस्य अन्तरिक्षस्य च नूतनानि संघर्षक्षेत्राणि उद्भूतानि सन्ति इति। श्रीमोदी वैश्विक महत्वाकांक्षायाः अनुरूपं भवेत् इत्यस्मै विषयाय अवधानम् अपि दत्तवान्। प्रधानमन्त्री नरेन्द्रमोदी न्यूयॉर्क नगरे संयुक्त राष्ट्र महासभायां भविष्यस्य शिखर सम्मेलनम् इत्याख्ये स्वीय सम्बोधनावसरे युक्रेन देशीयेन राष्ट्रपतिना वोलोदिमिर जेलेंस्की इत्यनेन साकं संवादं साधितवान्। तदनु श्रीमोदी अर्मेनियायाः प्रधानमन्त्रिणा निकोल पाशिनयान इत्यमुना सह न्यूयॉर्क नगरे च होलिसी इत्यभिनामधेयकस्य राज्यसचिवेन कार्डिनल पिएट्रो परोलिन इत्यनेन साकमपि वार्तां विहितवान्। अपि च श्रीमोदी वियतनामदेशीयेन राष्ट्रपतिना टो लाम इत्यमुना सार्धं द्विपक्षीयोपवेशनं विहितवान्। दशमां राष्ट्रमण्डल संसदीय संघ भारत क्षेत्र सम्मेलनं ह्यः नवदिल्ल्यां समारब्धम्। द्विदिवसीयस्यास्य सम्मेलनस्य अध्यक्षता लोकसभाध्यक्षेण ओम बिरला इत्यनेन क्रियते। अत्रावसरे श्रीबिरलाः न्यगादीत् यत् प्रौद्योगिकी संचारमाध्यमश्च जनानां जीवने अभिन्नांगत्वेन अभिज्ञायेते, अपि च विधायिकीनां कार्यकुशलतायां कार्यप्रणाल्यां च संशोधनाय प्रौद्योगिकी एका उपयोगिनी सिद्धिकरा च सेतुबन्धा भवेदिति। वित्तमन्त्री निर्मला सीतारामन इत्योषा अद्यारभ्य उज्बेकिस्तानदेशस्य पञ्चदिवसीय यात्रायां भविष्यति। स्वीय यात्राकाले वित्तमन्त्री श्वः गुरुवासरे च समरकन्दस्थले एशिया आधारभूत संरचना निवेश बैंक इत्येतस्य बोर्ड ऑफ गवर्नर्स इत्यस्य नवमे वार्षिकोपवेशने भागं भजिष्यति। अपि च भारत उज्बेकिस्तानयोः मध्ये द्विपक्षीय निवेश सन्धिपत्रेषु हस्ताक्षरम् अपि करिष्यति। वित्तमन्त्री उज्बेकिस्तान कतर चीनदेशानां स्वीयैः समकक्षैः सह द्विपक्षीयोपवेशनानि विधास्यति। तदनु सुश्री सीतारामन इत्येषा उज्बेकिस्तानस्य राष्ट्रपतिना शावकत मिर्जियोवेगेन इत्यनेन सह मेलनं करिष्यति इति आशास्यते। ऑस्ट्रेलिया देशस्य निजयात्रायाः प्रथमे दिवसे वाणिज्योद्योगमन्त्री पीयूष गोयलः ह्यः अनेकेषु उपवेशनेषु भागम् अभजत् तथा च नैकैः हितधारकैः सह वार्तां चर्चां च साधितवान्। वाणिज्योद्योग मन्त्रालयेन ख्यापितं यत् श्रीगोयलेन ऑस्ट्रेलियायाः बिजनेस काउंसिल द्वारा आयोजिते एकस्मिन् कार्यक्रमे भागः स्वीकृतः यस्मिन् ऑस्ट्रेलिया देशीयाः भारतीयाः च प्रमुख कार्यकारी अधिकारिणः उपस्थिताः आसन्। केन्द्रीय सूचना प्रसारण मन्त्री रेलमन्त्री च अश्विनी वैष्णवः अद्य राजस्थानं प्रति गमिष्यति। असौ अद्य जयपुर जनपदस्य भारतीय जनता पार्टीति दलस्य कार्यकर्तृभिः साकं संवादं समाचरिष्यति इति वार्ताः।